ओम नमो भगवते वासुदेवाय। अथ चतुर्विंशोऽध्यायः। राजोवाच, भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः। अवतारकथामात्यां माया मत्स्य विडम्बनम्। यदर्थमदधातरूपं मात्स्यं लोकजुगुप्सितं। तमः प्रकृतिदुर्मर्शं कर्मग्रस्त इवेश्वरः। एतन्नो भगवन् सर्वं यथावद्वक्तुमर्हसि। उत्तमश्लोकचरितं सर्वलोकसुखावहम्। सूत उवाच इत्युक्तो विष्णुरातेन भगवान् बादरायणिः। उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतम्। श्रीशुक उवाच गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः। रक्षामिच्छन्स्तनूर्धत्ते धर्मस्यार्थस्य चैव हि। उच्चावचेषु भूतेषु चरन्वायुरिवेश्वरः। नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः। आसीदतीतकल्पान्ते ब्रह्मो नैमित्तिको लयः। समुद्रोपप्लुतास्तत्र लोकाभूरादयो नृप। कालेनागतनिद्रस्य धातुः शिशयिषोर्बली। मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिके हरत्। ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम्। दधारसफरीरूपं भगवान् हरिरीश्वरः। तत्र राजऋषिः कश्चिन्नाम्ना सत्यव्रतो महान्। नारायणपरो तप्यत्तपःस्य सलिलासनः। योऽसावस्मिन् महाकल्पे तनयः स विवस्वतः। श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः। एकदाकृतमालायां कुर्वतो जलतर्पणम्। तस्याञ्जल्युदके काचिच्छपर्येकाभ्यपद्यत। सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत। उत्ससर्जनदीतोये सफरीं द्रविडेश्वरः। तमाहसाति करुणं महाकारुणिकं नृपम्। यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल। कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले। तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम्। अजानन् रक्षणार्थाय सफर्यास मनोदधे। तस्यादीनतरं वाक्यमाश्रित्य स महीपतिः। कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम्। सा तु तत्रैकरात्रेण वर्धमानाकमण्डलौ। अलब्ध्वात्मावकाशं वा इदमाहमहीपतिम्। नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे। कल्पयौकस्सु विपुलं यत्राहं निवसे सुखम्। स एनां ततादाय नथा दौदञ्च नोदके। तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत। नम एतदलं राजन् सुखं वस्तुमुदञ्चनम्। पृथुदेहि पदं मह्यं यत्त्वाहं शरणं गता। तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे। तदा वृत्त्यात्मनासोऽयं महामीनोऽन्ववर्धत। नैतन्मे स्वस्तये राजन्नुदकं सलिलौकसः। निधेहि रक्षायोगेन हृदे मामविदासिनि। इत्युक्तः सो नयन् मत्स्यं तत्र तत्राविदासिनि। जलाशये सम्मितं तं समुद्रे प्राक्षिपद्धशम्। क्षिप्यमाणस्तमाहेदमिह मां मकरादयः। अदन्त्यतिबलावीर मां नेहोत्स्रष्टुमर्हसि। एवं विमोहितस्तेन वदता वल्गुभारतीं। तमाहको भवानस्मान् मत्स्यरूपेण मोहयन्। नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि च। यो भवान् योजनशतमन्नाभिव्यानशेसरः। नूनं त्वं भगवान् साक्षात् हरिर्नारायणो व्ययः। अनुग्रहाय भूतानां धत्से रूपं जलौकसाम्। नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर। भक्तानां न प्रपन्नानां मुख्यो यात्मो गतिर्विभो। सर्वे लीलावतारास्ते भूतानां भूतिहेतवः। ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम्। न ते रविन्दाक्षपदोपसर्पणं मृषा भवेत् सर्वसुहृत्प्रियात्मनः। यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हिनः। श्रीशुक उवाच इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये। विहर्तु कामः प्रलयार्णवे ब्रवीच्चिकीर्षुरेकान्तजनप्रियः प्रियम्। श्रीभगवानुवाच सप्तमेऽद्यतनादूर्ध्वमहन्येतदरिन्दम। निमङ्क्षत्यप्ययां बोधौ त्रैलोक्यं भूर्भुवादिकम्। त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा। उपस्थास्यति नौ काचित् विशाला त्वां मयेरिता। त्वं तावदोषधीः सर्वा बीजान्युच्चावचानि च। सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः आरुह्य बृहतीं नावं विचरिष्यस्य विक्लवः एकार्णवे निरालोके ऋषीणामेव वर्चसा दोधूयमानां तां नावं समीरेण बलीयसा उपस्थितस्य मे शृङ्गे निबध्निः महाहिना अहं त्वां ऋषिभिः साकं सह नावमुदन्वति विकर्षन् विचरिष्यामि यावद् ब्राह्मे निशा प्रभो मदीयं महिमानं च परं ब्रह्मेति शब्दितं वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि इत्थमादिश्य राजानं हरिरन्तर्धीयत सोऽन्ववैक्षततं कालं यं ऋषिकेश आदिशत् आस्तीर्यदर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ध्यायन् भगवदादेशं ददृशे नावमागताम् तामारुरोह विप्रेन्द्रैरादायौषधिविरुदः तमूचुर्मुनयः प्रीता राजन् ध्याय स्वकेशवम् स वै नः सङ्कटादस्मादविता संविधास्यति सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे एकशृङ्गधरो मत्स्यो हैमो नियुतयो जनः निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा वरत्रेणा हिना तुष्टस्तुष्टाव मधुसूदनम् राजोवाच अनाद्य विद्योपहतात्मसंविदस्तन्मूलसंसारपरिश्रमातुराः यदृच्छयेहोपसृतायमाप्नुयुर्विमुक्तिदो नः परमो गुरुर्भवान् जनो बुधोऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहते सुखम् यत्सेवया तां विधुनोत्य सन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजय्यान्मलमात्मनस्तमः भजेत वर्णं निजमेष सोऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः न यत्प्रसादायुतभागलेश मन्ये च देवा गुरवो जनाः स्वयम् कर्तुं समेताः प्रभवन्ति पुंसस्तमीश्वरं त्वां शरणं प्रपद्ये अचक्षुरन्धस्य यथाग्रणीः कृतस्तथा जनस्य विदुषो बुधो गुरुः त्वमर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्न स्वगतिं बुभुत्सताम् जनो जनस्य दिशते सतीं मतिं यया प्रपद्येत दुरत्ययं तमः त्वं त्वव्ययं ज्ञानमोघमञ्जसा प्रपद्यते येन जनो निजं पदम् त्वं सर्वलोकस्य सुहृत्प्रियेश्वरो यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः तथापि लोको न भवन्तमन्धधीर्जानाति सन्तं हृदि बद्धकामः तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय छिन्द्यर्थदीपैर्भगवन्वचोभिर्ग्रन्थीं हृदय्यान् विवृणुस्वमोकः श्रीशुक उवाच इत्युक्तवन्तं नृपतिं भगवानादिपूरुषः मत्स्यरूपी महाम्भोधौ विहरन्स्तत्त्वमब्रवीत् पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीं सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः अस्रौषीदृशिभिः साकमात्मतत्त्वमसंशयम् नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् अतीतप्रलयापाय उत्थिताय स वेधसे हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः विष्णोः प्रसादात् कल्पेऽस्मिन्नासीत् वैवस्वतो मनुः सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् अवतारो हरेर्योऽयं कीर्तयेदन्वहं नरः सङ्कल्पास्तस्य सिद्ध्यन्ति स याति परमां गतिं प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्तहत्वा दितिजमकथयद्यो ब्रह्म सत्यव्रतानां तममखिलहेतुं जिह्ममीनं नतोऽस्मि प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्तहत्वा दितिजमकथयद्यो ब्रह्म सत्यव्रतानां तममखिलहेतुं जिह्ममीनं नतोऽस्मि ओम स्वस्ति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसहस्र्यां पारमहंस्यां संहितायामष्टमस्कन्धे मत्स्यावतारचरितानुवर्णनं नाम चतुर्विंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।